नमस्ते। वाक्यकारं रवकिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। गतपाठे अजन्तानां प्रक्रियां जानन्तः आस्म। अकारान्त शब्दानां प्रक्रिया गतपाठे उक्ता। अस्मिन् पाठे अवशिष्टानां शब्दानां प्रक्रियां जानीमः। आदौ इकारान्तः उकारान्तः। इकारान्तशब्दाः इकारान्तपुल्लिङ्गशब्दाः उकारान्तपुल्लिङ्गशब्दाः। तत्र प्रत्ययानां विषये गतपाठे एव उक्तं कुत्र किं परिवर्तनं जायते, किमर्थं परिवर्तनं भवति इत्यादिविषये गतपाठे एव उक्तं। ते प्रत्ययाः कथम् इकारान्तात् उकारान्तात् योजनीयाः इति इदानीं पश्यामः। तत्र प्रथमः प्रत्ययः अस्ति सु इति। इकारान्तशब्दः हरिशब्दं स्वीकुर्मः। हरि इति इकारान्तः शब्दः। हरिशब्दात् सु इति प्रत्ययः। सकारस्य स्थाने रुत्वं ऋ इत्यवशिष्यते, ततः परं विसर्गः तीर्थविसर्गः। हरिः हरिस् हरिर्हरिः एन् हरि औ। हरिः औ इति स्थिते हरि औ। अत्र प्रथमयोः पूर्वसवर्णः इति सूत्रं गतपाठे अपि उक्तं। प्रथमयोः इति पदं वर्तते। प्रथमयोः इत्यनेन प्रथमयोः इति द्विवचनम्, अतः द्वयोः ग्रहणं। कयोः द्वयोः इति चेत् प्रथमाविभक्तिः द्वितीयाविभक्तिः। प्रथमाविभक्तौ द्वितीयाविभक्तौ च पूर्वसवर्णदीर्घः। दीर्घादिपदम् अत्र न दृश्यते, अनुवृत्तमस्ति। पूर्वसवर्णदीर्घः प्रवर्तते। पूर्ववर्णस्य सवर्णः दीर्घः। उदाहरणार्थम् अस्मिन् उदाहरणे हरि औ इति स्थिते पूर्वसवर्णदीर्घः। पूर्वः वर्णः कः? हरि इति पूर्वः भागः, औ इति उत्तरभागः। पूर्वः भागः हरि इति। तत्र पूर्वः वर्णः कः? इकारः वर्तते। इ इति पूर्वः वर्णः। हरि औ इति स्थिते इ इति पूर्वः वर्णः। पूर्वसवर्णदीर्घः, तस्य सवर्णः दीर्घः कः? ईकारः। ईकारः दीर्घः। इकारस्य सवर्णः अपि, सवर्णः इत्यस्य कः अर्थः? स्थानम्, उच्चारणस्थानं समानं भवेत्। अत्र साम्यमस्ति, अतः ईकारः तस्य सवर्णदीर्घः भवति ह्रस्व इकारस्य। सः एकादेशः। एकादेशः नाम द्वयोः वर्णयोः स्थाने दीर्घ इकारः एव आदिश्यते। अतः ह्रस्व इकारस्य औकारस्य च स्थाने दीर्घ ईकारः भवति। एवञ्च हरि इति रूपं, ಇಕಾರಸ್ಯ ಔಕಾರಸ್ಯ ಸ್ಥಾನೆ ದೀರ್ಘ ಈಕಾರ ಅತ ಹರಿ ಇತಿ ರೂಪ. ಹರಿಹಿ ಹರಿ ದಿವಚನ ತರಂ ಹರಿ ಪ್ಲಸ್ ಅಸ್ ಬಹುವಚನ ಪ್ರತ್ಯಯ. ಹರಿ ಅಸ್ ಅಸ್ ಪ್ರತ್ಯಯ ಪರೇ ಗುಣ ಪೂರ್ವಸ್ಯ ಗುಣ ಕಂ ಸೂತ್ರ ಅತ್ರ ಸೂತ್ರ ಲಿಖಿತಮಸ್ತಿ ಜಸಿ ಚ ಇತಿ ಸೂತ್ರೇಣ ಅತಃ ಅಸ್ ಅಯಂ ವಸ್ತುತಃ ಜಸ್ ಇತಿ ಪ್ರತ್ಯಯ ಜಸಿ ಇತಿ ಸಪ್ತಮೇ ವಿಭಕ್ತಿ ಅತಃ ತಸ್ಮಿನ್ ಪರೇ ಇತ್ಯರ್ಥಃ ಜಸಿ ಪರೇ ಕಂ ಭವತಿ ಗುಣ ಭವತಿ. ಅತ್ರ ಅಸ್ ಇತ್ಯನೇನ ಅನ್ಯತ್ರಾಪಿ ಅಸ್ ಅಸ್ತಿ ಪಂಚಮೀ ವಿಭಕ್ತಿ ಪುನಃ ಷಷ್ಠಿ ವಿಭಕ್ತಿ ಪಂಚಮೀ ಏಕವಚನಮಪಿ ಅಸ್ ಷಷ್ಠಿ ಏಕವಚನಮಪಿ ಅಸ್ ತತ್ರಾಪಿ ಗುಣ ಪ್ರವರ್ತತೆ. ಇದು ಸೂತ್ರಂ ಅನ್ಯತ್ ಘೇರಂಗೀತಿ ಇತಿ ಅತ್ರ ಲಿಖಿತಮಸ್ತಿ ತೇನ ಸೂತ್ರೇಣ ಗುಣ ಏವಂ ಯೇ ಇತಿ ಪ್ರತ್ಯಯ ಅಸ್ತಿ ಚತುರ್ಥಿ ಚತುರ್ಥಿ ಏಕವಚನ ತತ್ರಾಪಿ ಗುಣ ಪ್ರವರ್ತತೆ. ಅತಃ ಏತೇಷು ಪ್ರತ್ಯಯೇಷು ಪರೇಷು ಗುಣ ಪ್ರಥಮಾವಿಭಕ್ತೇ ಬಹುವಚನೆ ಪರೇ ಗುಣ ಏ ಪ್ರತ್ಯಯ ಪರೇ ಪುನಃ ಷಷ್ಠಿ ಏಕವಚನೆ ಪಂಚಮೇಕವಚನೆ ಚ ಗುಣ ಪ್ರವರ್ತತೆ. ಸಂಬೋಧನಸ್ಯ ಏಕವಚನೆ ಅಪಿ ಗುಣ ಅಸ್ತಿ ಸಂಬೋಧನಸ್ಯ ಏಕವಚನ ಪ್ರತ್ಯಯ ಸು ಇತ್ಯೇವ ಪ್ರಥಮಾವಿಭಕ್ತೇ ಪ್ರತ್ಯಯ ಪ್ರತ್ಯಯ ಸ ಏವ ಸಂಬೋಧನಸ್ಯಾಪಿ ಪ್ರತ್ಯಯ ಅತಃ ಸು ಇತ್ಯೇವ ಸಂಬೋಧನೆ ಅಪಿ ತಸ್ಮಿನ್ ಪರೇ ಅಪಿ ಗುಣ ಪ್ರವರ್ತತೆ. ಅತಃ ಏತೇಷು ಸರ್ವೇಷು ಪ್ರತ್ಯಯೇಷು ಪರೇಷು ಗುಣ ಭವತಿ. ಸಂಪ್ರತಿ ಪ್ರಥಮಾವಿಭಕ್ತೇ ಬಹುವಚನ ಪ್ರತ್ಯಯಸ್ಯ ಪ್ರಕ್ರಿಯಾಂ ಪಶ್ಯಾಮಃ. ಹರಿ ಅಸ್ ಅತ್ರ ಅಸ್ ಪ್ರತ್ಯಯ ಪದೇ ಗುಣಃ ಏವಂಚ ಹರೇ ಗುಣಃ ನಾಮ ಗುಣವರ್ಣಃ ಭವತಿ ಇತ್ಯರ್ಥಃ. ಗುಣವರ್ಣಃ ಕೇ ಪೂರ್ವಮಸ್ಮಾಭಿಃ ಪಠಿತಂ ಅ ಎ ಓ ಏತೇ ತ್ರಯಃ ಗುಣವರ್ಣಾಃ ಇತಿ ಗಚ್ಚಂತೆ ಏತೇಷಾಂ ತ್ರಯಾಣಾಂ ಗುಣಃ ಇತಿ ಸಂಜ್ಞಾ. ಏತೇಷು ಕಶ್ಚನ ವರ್ಣಃ ಭವತಿ ಇತ್ಯರ್ಥಃ. ಗುಣಃ ಭವತಿ ಇತ್ಯಸ್ಯ ಏತೇಷು ಕಶ್ಚನ ವರ್ಣಃ ಇಕಾರಸ್ಯ ಸ್ಥಾನೇ ಭವತಿ ಇತ್ಯರ್ಥಃ. ಕಃ ವರ್ಣಃ ಭವಿತುಂ ಅರ್ಹತಿ ಏತೇಷು ಇತಿ ಚೇತ್ ತದಾ ಸಾಮ್ಯಂ ಕೇನ ವರ್ಣೇ ಇಕಾರಸ್ಯ ಕೇನ ವರ್ಣೇನ ಸಾದೃಶ್ಯಮಸ್ತಿ ಇತಿ ಅವಲೋಕನೀಯಂ. ಕೇನ ವರ್ಣೇನ ಸಾದೃಶ್ಯಮಸ್ತಿ ಇತಿ ಚೇತ್ ಅತ್ರ ಏಕಾರೇಣ ಸಾದೃಶ್ಯಮಸ್ತಿ. ಏಕಾರೇಣ ಕಿಮರ್ಥಂ ಏಕಾರೇಣ ಸಾದೃಶ್ಯಮಸ್ತಿ ಇಕಾರಸ್ಯ ಇಚೂಯ ಶಾನಾಂ ತಾಲು ಇಕಾರಸ್ಯ ಉಚ್ಚಾರಣ ಸ್ಥಾನಂ ತಾಲು. ಏವಂ ಏಕಾರಸ್ಯ ಉಚ್ಚಾರಣ ಸ್ಥಾನಂ ಕಂಠ ತಾಳು ಸ್ಥಾನದ್ವಯಂ ಕಂಠ ತಾಳು ಏಕಾರಸ್ಯ. ಇಕಾರಸ್ಯ ಉಚ್ಚಾರಣಾರ್ಥಂ ತಾಳು ಸ್ಥಾನಂ ಅಪೇಕ್ಷಿತಂ ಏಕಾರಸ್ಯ ಉಚ್ಚಾರಣಾರ್ಥಂ ಅಪಿ ತಾಳು ಸ್ಥಾನಂ ಅಪೇಕ್ಷಿತಂ. ಕಂಠ ಅಸ್ತಿ ತಾಳು ಸ್ಥಾನಂ ತು ಸಮಾನಂ ಉಭಯತ್ರಾಪಿ. ಏವಂಚ ಉಚ್ಚಾರಣ ಸ್ಥಾನ ಸಾಮ್ಯಂ ಅಸ್ತಿ ಕಿಂತು ಅಕಾರೇಣ ಉಚ್ಚಾರಣ ಸ್ಥಾನ ಸಾಮ್ಯಂ ನಾಸ್ತಿ. ಓಕಾರೇಣಾಪಿ ಉಚ್ಚಾರಣ ಸ್ಥಾನ ಸಾಮ್ಯಂ ನಾಸ್ತಿ. ಅಕಾರಸ್ಯ ಕಂಠ ಕೇವಲಂ ಸ್ಥಾನಂ, ಓಕಾರಸ್ಯ ಕಂಠ ಓಷ್ಠಂ ಕಂಠೋಷ್ಠಂ ಎವಂಚ ಸ್ಥಾನ ಸಾಮ್ಯಂ ನಾಸ್ತಿ. ಅತಃ ಇಕಾರಸ್ಯ ಸ್ಥಾನೇ ಏಕಾರಃ ಏವ ಭವತಿ. ಅತಃ ಇಕಾರಸ್ಯ ಸ್ಥಾನೇ ಏಕಾರೇ ಹರೇ ಇತಿ ರೂಪಂ, ಹರೇ ಅಸ್. ಏಕಾರಾತ್ ಅಕಾರೇ ಪರೇ ಸಂಧಿ ಕಾರ್ಯಂ ಪ್ರವರ್ತತೆ. ಕಿಂ ಭವತಿ ಇತಿ ಚೇತ್ ತತಃ ಸ್ವರ ಸಂಧಿ ಏಕಾರ ಅಸ್ತಿ, ಅತಃ ಏಕಾರಸ್ಯ ಸ್ಥಾನೇ ಐ ಇತಿ ಆದೇಶಃ ಹರ್ ರೈ. ಏಕಾರಸ್ಯ ಸ್ಥಾನೇ ಐ ಅಯು, ಅತಃ ಹರೈ ಅಸ್ ಹರಯ. ಹರಯ ಸಂಹಿತ. ಅಸ್ತು, ಪ್ರಥಮ ವಿಭಕ್ತೇಃ ಪ್ರಕ್ರಿಯಾ ಸಮಾಪ್ತ. ಹರಿಹಿ ಹರೀ ಹರಯಃ. ತದಸ್ಪರಂ ಸಂಬೋಧನ ಪ್ರಥಮ. ಸಂಬೋಧನ ಪ್ರಥಮಾಯಾಃ ಪ್ರತ್ಯಯಃ ಪ್ರತ್ಯಯಃ ಏತೇ ಏವ. ಅತಃ ತಸ್ಯ ಪ್ರಕ್ರಿಯಾಂ ಜಾನೀಮಃ. ಸಂಬೋಧನೆ ಹರಿ ಸು ಏಕವಚನ ಪ್ರತ್ಯಯ, ಅತ್ರ ಮಯಾ ಉಕ್ತಂ ಸಂಬೋಧನಸ್ಯ ಏಕವಚನ ಪ್ರತ್ಯಯ ಪರೇ ಅಪಿ ಗುಣಃ ಪ್ರವರ್ತತೆ ಇತಿ. ಸೂತ್ರಂ ಅತ್ರ ವರ್ತತೆ ಹ್ರಸ್ವಸ್ಯ ಗುಣಃ ಇತಿ. ಏವಂಚ ಪೂರ್ವತ ಗುಣಃ ಚೇತ್ ಇಕಾರಸ್ಯ ಸ್ಥಾನೇ ಏಕಾರಃ, ಅತಃ ಹರೇ ಸು. ಇತಃ ಕಿಂ ಭವತಿ, ಏಕಾರಾತ್ ಸಕಾರಃ ವರ್ತತೆ. ಮಯಾ ಪೂರ್ವಂ ಉಕ್ತಂ ಏಕಾರಾತ್ ಯದಿ ಸಕಾರಃ ಅಸ್ತಿ ಸು ಪ್ರತ್ಯಯಸ್ಯ ಲೋಪಃ ಭವತಿ ಇತಿ. ಏಂಗಂತಾತ್ ಏಓ ಏಕಾರಾತ್ ಓಕಾರಾತ್ ವಿದ್ಯಮಾನ ಸಕಾರಸ್ಯ ಲೋಪಃ ಭವತಿ ಇತಿ ಪೂರ್ವಂ ಉಕ್ತಮಾಸೀತ್. ತದ್ವದೇವ ಸಕಾರಸ್ಯ ಲೋಪಃ ಎವಂಚ ಹರೇ ಇತಿ ಅವಶಿಷ್ಯತೆ. ಪೂರ್ವಂ ಇದಂ ಪಾಠಿತಂ ಏಂ ಹ್ರಸ್ವಾತ್ ಸಂಬುದ್ಧೇಃ ಇತಿ ಸೂತ್ರಂ. ಎತಸ್ಯ ವಿವರಣಂ ಪೂರ್ವಂ ಕೃತಮಸ್ತಿ. ಅತಃ ಸಂಬುದ್ಧಿ ಸು ಪ್ರತ್ಯಯಸ್ಯ ಲೋಪಃ ಹರೇ ಇತಿ ರೂಪಂ. ಸಂಬೋಧನ ಏಕವಚನೆ ಹರೇ, ಹೇ ಹರೇ. ಹರೇ ಅಗ್ರೆ ವಿಶೇಷಃ ನಾಸ್ತಿ, ಔ ಇತಿ ಪ್ರತ್ಯಯಃ ಪ್ರಥಮವಿಭಕ್ತೌ ಯಥಾ ಪ್ರಕ್ರಿಯಾ ಕೃತ ತದ್ವದೇವ ಅತ್ರಾಪಿ ಪ್ರಕ್ರಿಯಾ ಕರ್ತವ್ಯ. ಹೇ ಹರೇ ಹೇ ಹರಿ ಬಹುವಚನೆಪಿ ಸಮಾನಂ ರೂಪಂ ಹೇ ಹರಯಃ. ತದಸ್ಪರಂ ದ್ವಿತೀಯ ವಿಭಕ್ತಿ ಪ್ರತ್ಯಯಃ ಅಂ ಇತಿ ಪ್ರತ್ಯಯಃ ಹರಿ ಅಂ. ಅಂ ಪ್ರತ್ಯಯೇ ಪರೇ ಮಯಾ ಪೂರ್ವಮುಕ್ತಂ ಪೂರ್ವರೂಪಂ ಭವತಿ ಇತಿ. ಪೂರ್ವರೂಪಂ, ಪೂರ್ವಂ ಕಃ ವರ್ಣಃ ಅಸ್ತಿ ಇಕಾರಃ ಅಸ್ತಿ ಸಹ ಏವ ದ್ವಯೋಃ ವರ್ಣಯೋಃ ಸ್ಥಾನೇ ಭವತಿ. ಅರ್ಥಾತ್ ಇಕಾರ ಅಕಾರ ಇಕಾರಾಕಾರಯೋಃ ಸ್ಥಾನೇ ಇಕಾರಃ ಏವ, ಅತಃ ಹರಿಂ ಇತಿ ರೂಪಂ. ಹರಿಂ ತಸ್ಪರಂ ಔ ಇತಿ ಪ್ರತ್ಯಯಃ ಪ್ರಕ್ರಿಯಾ ಸಮಾನ ಉಭಯತ್ರಾಪಿ ಹರೀ ಇತ್ಯೇವ. ಪ್ರಥಮಾಭಕ್ತೇಃ ದ್ವಿವಚನೇಪಿ ಹರೀ ಇತ್ಯೇವ ರೂಪಂ, ದ್ವಿತೀಯಾಭಕ್ತೇಃ ದ್ವಿವಚನೇಪಿ ಹರೀ ಇತ್ಯೇವ ರೂಪಂ. ಹರಿಂ ಹರೀ. ತಸ್ಪರಂ ಮಯಾ ಅತ್ರ ಇನ್ನಿತಿ ಲಿಖಿತಂ. ಅತ್ರ ವಸ್ತುತಃ ಕಥಂ ಪ್ರಕ್ರಿಯಾ ಭವತಿ ಇತಿ ಅಹಂ ರಾಮಶಬ್ದಸ್ಯ ನಿರೂಪಣಕಾಲೇಪಿ ಉಕ್ತವಾನ್, ಪುನಃ ಅತ್ರಾಪಿ ಸ್ಮರಯಾಮಿ. ಹರಿ still it is it was us. Because the pratyaya is shas. Ataha atrapi asiteva. But first after applying this prathamayoho purva savarnaha. Purva savarna dirghaha. Purva savarnaha ikaraha. Tasya dirghaha nama ikaraha. Ataha haris. ಪೂರ್ವ ಸವರ್ಣ ದೀರ್ಘ ಪೂರ್ವಸ್ಯ ಸವರ್ಣ ದೀರ್ಘ ಆದಿಶ್ಯತೆ ದ್ವಯೋಃ ಸ್ಥಾನೆ ಅತಃ ಹರೀಸ್ ದೆನ್ ದಿಸ್ ಐ ಮೇ ಎಕ್ಸ್ಪ್ಲೇನ್ ಇನ್ ದ ಪ್ರಿವಿಯಸ್ ಕ್ಲಾಸ್ ಆಲ್ಸೋ ಸಕಾರಸ್ಯ ಸ್ಥಾನೆ ನಕಾರ ಸ ವಿಲ್ ಬಿ ರಿಪ್ಲೇಸ್ ವಿತ್ ನಕಾರ ಹರೀನ್ ದೇರ್ಫೋರ್ ಐ ರೋಟ್ ಇನ್ ಹಿಯರ್ ಸೊ ಹರಿ ಇನ್ ಹರೀನ್ But this is how the prakriya goes. Evancha harin iti dvitiya bhaktehe bahuvachana bahuvachanantam rupam. Then hari plus na harina vishesha nasti yatra hari plus na harina samhita ಇದಾನಿಂ ಅತ್ರ ರಕಾರ ಅಸ್ತಿ ದಿಸ್ ಇಸ್ ರೇಫ ಇನ್ ದಿಸ್ ವರ್ಡ್ ಅತಃ ನಕಾರಸ್ಯ ಸ್ಥಾನೆ ನಕಾರಃ ದಿಸ್ ಆಲ್ಸೋ ವಿ ಸ್ಟಡಿ ಸೊ ಹರಿ ನಾ ಹರಿಣ ಓಕೆ ದೇರ್ ಆರ್ ಸಮ್ ಕ್ವೆಶ್ಚನ್ಸ್ ಗೋಯಿಂಗ್ ಬ್ಯಾಕ್ ಪ್ರಥಮ ಬಹುವಚನಂ ವೈ ದ ವರ್ಡ್ Intermediate step of Vriddhi and then Ya. Why not I plus A? We're going, okay, intermediate. Prathama Bahuvachana. Prathama Bahuvachana. Okay. There we did Guna. Because this guna rule is applicable only when just pratyaya follows. Okay, okay. I think once again I'll explain both prathama bhakti bahuvachana and dvitiya bhakti bahuvachana. So there are some questions. So I start with prathama bhakti bahuvachana again. Hari, this is Pratama Bhakti Bhavatana now. Hari plus us. Okay. See, this I mentioned this rule. Jasi cha. So, jas iti pratyaha Pratama Bhakti Bhavatana eva. See, there are two pratyas. One is jas, this is the pratyaya of Pratama Bhakti Bhavatana. And the other is shas. Dvitiya bhakti bahuvachana pratyaha. This is prathama bhakti bahuvachana pratyaha jas. Dvitiya bhakti bahuvachana pratyaha shas. Kintu ubhayatra api as ityo avashishyate. As remains. Both the pratyas. As ityo avashishyate. So now we are in prathama bhakti bahuvachana. That means it is jas pratyaha. So this sutra says jasi cha jasi saptami bhakti of jas jasi so jasi pare gunah bhavati purvasya gunah bhavati so jas pratyaye pare purvah varnah kah there is ikara ikarasya sthane gunah so e will be replaced with a kimartham a I explained there are three letters guna letters a a o ಇಕಾರಸ್ಯ ಏಕಾರಸ್ಯ ಚ ಸ್ಥಾನಂ ಸ್ಥಾನ ಸಾಮ್ಯಮಸ್ತಿ ಅತಃ ಇಕಾರಸ್ಯ ಸ್ಥಾನೆ ಏಕಾರಃ ಭವತಿ ಹರಿ ಪ್ಲಸ್ ಹರೇ ಪ್ಲಸ್ ಅಸ್ ಇದಾನೀಂ ಏತೋಯ ವಾಯಾವಃ ದಿಸ್ ಅಚ್ಛಂಧಿ ಸೂತ್ರಂ ಏತೋಯ ವಾಯಾವಃ ಏಕಾರಸ್ಯ ಸ್ಥಾನೆ ಐ ಇತಿ ಆದೇಶಃ A plus A is harai. Ekarasya sthane. So A ityasya sthane I. Okay, this is Achandhi rule. Etoyavayavaha. So hare becomes harai. Now harai plus us. If we add these two, then it is harayas. Then rutva visarga harayaha. Okay. It is clear. It's Prathama Vibhakti Bahuvachana. Now let us say Dvitiya Vibhakti Bahuvachana. Actually, I wrote here in the Pratyaya chart, I wrote in. That is actually the end form. But as it begins with us only. Hari plus us. Here, this guna rule is not applicable. Kimartham na anveti, because sutre kimuktam jasi ityuktam. Jas pratyaha prathama vibhaktehe bahuvachane eva. Dvitiya vibhaktehe bahuvachane, it is shas, it's not jas. Ataha, this jasi cha, jasi, shasi iti nasti, kyolam jasi iti asti. Ataha, jasi cha iti sutram, dvitiya vibhaktehe bahuvachane na pravartate. अतः गुणः न भवति इति अभक्तेः बहुवचने गुणः नास्ति तर्हि किं प्रवर्तते इति चेत् दिस् प्रथमयोः पूर्वसवर्णः इस् अप्लिकेबल् एज़् ऐ मेन्शन्ड् प्रथमयोः इन् प्रथमाभक्ति अण्ड् द्वितीयाभक्ति दिस् रूल् इस् अप्लिकेबल् दिस् इस् जनरल् रूल् इफ् देर् इस् नो अदर् रूल् देन् प्रथमयोः पूर्वसवर्णः शुड् बि अप्लैड् अतः अत्र प्रथमयोः पूर्वसवर्णः इति सूत्रम् अन्वेति किं भवति अनेन सूत्रेण द्वयोः स्थाने इन् द प्लेस् आफ् इकार एण्ड् अकार पूर्व सवर्ण दीर्घ पूर्व इस् ह्रस्व इकार तस्य सवर्ण दीर्घ इस् ईकार ईकारः द्वयोः स्थाने भवति देयरफोर इट् बिकम्स् हरीस् हरीस् ततः परं सकारस्य स्थाने नकारः द रूल् ऐ मेन्शन् इन् प्रीवियस् क्लास् तस्मात् शसो नः पुंसि तस्माच्छसो नः पुंसि इति सूत्रम् बिगिन्स् वित् तस्मात् तस्मात् शसो नः अतः सकारस्य स्थाने नकारः भवति एवञ्च हरीन् इति रूपम् सो ओन्ली वि अप्लैड् टु रूल्स् हियर् फस्ट् वि अप्लैड् प्रथमयोः पूर्वसवर्णः देन् वि अप्लैड् तस्मात् छसो नः पुंसि ओके अस्तु ओके writing full sutra is okay. See, it is there in the previous, in the last class notes. The full sutra is written. Tasmat shaso naha pumsi. It is the full sutra. Tasmat shaso naha pumsi. You can see shaso. Here it was jasi. Now it is shasaha. So they are referring to shaspratyaya. Okay, asto. Now, yeah, I explained this. Tritiya bhakti ekavachana. Hari na. Hari na. Then nakarasya sthane nakaraha. harina. This is the form. Rupam hari na. Nakara. Nakara sthane nakara bhavati. Because there is repha in this word. Okay. Sutra sankhya. See, atra asti. All rules, it was in the previous class, mentioned in the previous class also. The rule, sutra sankhya, everything is given here. Patami of Purasavaranaha 6100. Then Tasma Chaso Nafumsi 61101. Okay, so asto. Okay, next harina, then hari plus bhyam. Atra bhyam iti pratyaha tritiya bhakte bahuvachana pratyaha visheshah kopi nasti hari bhyam. Kimapi sutram na pravartate haribhyam. Haribhyam. Haribhyam, haribhyam. Haribhis, haribhihi. Atrapi visheshah nasti sakarasya sthane repah tataha visargah. Haribhihi. Then hari e. Chaturthi vibhaktihi. Maya uktam, again, e pratye pare api purvasya gunaha. Kim sutram gheering iti atalikitam asti sutram. So, ataha kim bhavati? Hari e gunaha ikarasya sthane ekaraha hare e, then as I mentioned, echo yavayavaha, the sandhi reciprocable. So it becomes harai plus a, then haraye. Okay, haraye, then haribhyam. Haribhyaha as iti pratyaha. So hari plus as atrapi as pratyaya pare api purvasya gunaha sutram gher ngiti iti. So very hari becomes hare, hare plus as. Okay, now after applying this guna, anyat ekam sutram asti. Here I have written nit as pratyaye pare, this ngasi and ngas. Gunottaram, after applying guna, purva rupam ekadeshah, purva rupam pravartate. Ngasi ngasoscha iti sutram. So purva rupa, purva varanaha kaha, that is ekara. Ekara replaces both the letters. That is purva rupa. Therefore, eka, so it becomes hares. A replaces akara also. Now it is hares. Then ru and visarga harehe. Okay, so after applying guna, one more step is there, that is nasinga sosta, purva rupa is applicable. Instead of etoya vayavaha, we apply nasinga sosta, purva rupa rule. Okay, this rule is applicable only in panchami ekavachana and shasthi ekavachana, because it mentions nasinga soho. ओके सेम अतः पंचम एकवचने हरेः षष्ठी एकवचने अपि हरेः उभयत्रापि रूपं समानम् देन हरि हरेः हरिभ्याम हरिभ्याम हरिभ्यः हरेः नौ हरि प्लस ओस अत्र संधि कार्यं प्रवर्तते इकारात् ओकारे परे यन् संधिः अर्थात् इकारस्य स्थाने यकारः सो हरियु सो ऐ एम अप्लाइंग यन् संधि रूल इको यनसि सो हरियु इकारस्य स्थाने यकार हरियु ओस देन हरियोः हर्यो हर्योः यन् सन्धि इको यणचि सूत्रम् सिक्स् वन् वन् जीरो सिक्स् इस् अपवाद टु सन्धीरु ओके उत्तमः प्रश्नः सि द प्राब्लम् इस् एक्चुलि दिस् सूत्र इस् इन् सन्धि सेक्शन् ओन्लि इन् अष्टाध्यायि सि सिक्स् वन् वन् जीरो सिक्स् The Sandhi rules, all the Satsandhi rules are in same section, 6-1. But it is not given in Achandhi section, in Siddhanta Kaumudi or Siddhanta Kaumudi, etc. Because it is specifically meant to Nasi and Ngas. Nasi Ngasoho iti Uktatvaat. So this rule is applicable only in when we study Subantas. Though it also actually is a Sandhi rule only. Nasingasoschapi Sandhi Sutrameva. But it is not applicable as other rules. It is not a general rule, but it's an exception. Ataha, therefore, it is not given in it's not taught while teaching Sandhi. But it is also Sandhi Sutra, but it is an exception to Echoyavayavaha. Okay? Ataha Apavada Sutramasti. Nasingasoschapi Echoyavayavaha ityasti Apavada Sutramasti. Kintu idamapi Sandhi Sutrameva. Kimartham idamapi Sandhi Sutram? इदमपि सन्धि प्रकरणे एव अस्ति 6-1-1-0-6 अस्ति अतः सन्धि अष्टाध्याय्यां सन्धि प्रकरणे एव इदं सूत्रं पठितमस्ति अस्तु सो हरियोः देन् हरि नाम अत्र पूर्वं मया उक्तम् नाम प्रत्यये परे सर्वदा दीर्घः इति अतः हरि प्लस् नाम देन् दीर्घ सूत्र ऐ मेन्शन् प्रीवियस्लि इट् इस् नामि हरि रैट् हरि नाम सूत्र फार् दीर्घ इस् नामि हरीनां ततः परं नकारस्य स्थाने नकारः भवति किमर्थं रेफः अस्ति इट् इस् रेफ इन् दिस् वर्ड् अतः नकारः हरीणाम् हरीणाम् ओके षष्टि बहुवचनं समाप्तम् इदं सप्तमि एकवचन हरि औ अत्र इकारस्य स्थाने अकारः भवति दिस् इकार विल् बि रिप्लेस् वित् अकार सो इट् बिकम्स् हर औ सूत्र इस् गिवन् हियर् अच्च घेः यु केन् सी अत् अत् च घेः सो ई विल् बि रिप्लेस् वित् अकार इवन् दिस् औ ङी इति एक्चुली द प्रत्यय वास् ङी And now there is au. So au replaces ngi. So the sutra is same. Attagehe is the sutra. Both the actions, akara and au, are done by this sutra. परंतु प्रत्यय अस् अस्ति अतः अंगकार्यम नास्ति वा। अंगकार्यम अंगकार्यम अंगाधिकारे उक्तानि सन्ति, अंगस्य इति एकः अधिकारः अस्ति, सः अधिकारः षष्ठाध्यायस्य चतुर्थपादे आरभ्यते। षष्ठाध्याय चतुर्थपादे अंगाधिकारः अस्ति। इदं सूत्रं षष्ठाध्यायस्य प्रथमपादे अस्ति, अतः अंगाधिकारे इदं सूत्रं नास्ति। अंगकार्यम् इति वक्तुं शक्नोति, यू कैन से इट इज अंगकार्य, बट इट इज नॉट एक्चुअली, इट इज नॉट इन अंगाधिकार। अंगस्य इति अधिकारः अस्ति, 641 इज द सूत्र, 641 इज अंगस्य। षष्ठाध्यायस्य चतुर्थपादः आरभ्य सप्तमाध्याय समाप्तिपर्यन्तं सर्वाणि सूत्राणि अंगसंबद्धानि सन्ति, तस्मिन् अधिकारे गसिगसोऽस्ति सूत्रं नास्ति। इदं सूत्रं संहितायाम् इति अधिकारे अस्ति। दिस् सूत्र गसिगसोऽस्ति इस् गिवन् अण्डर् दिस् अधिकार संहितायाम्। एण्ड् आल् सन्धि रूल्स्, Sandhi rules means Achandhi rules, like Iko Anachi, Eto Yava Yavaha, all these rules are under Samhitayam Adhikara. Therefore I said this is a Sandhi rule. Okay? Atra Adhikara ha Samhitayam iti Adhikara ha. Kutra Nasinga Soscha iti Sutre. Okay. So, Hara Au, then vriddhi sandhi, because akarat aukara asti, ataha vriddhi sandhi, vriddhi reti iti sutram, hara au harau, harau iti rupam. Then hari os, atra api os pratyaya asit, ataha prakriya samana hari yoho, यन् सन्धिः प्रवर्तते। देन् हरि प्लस् सु लिखामि, अत्र विशेषः कोऽपि नास्ति, हरि सु, बट् सकार इकारात् परं सकारः अस्ति, अतः तस्य स्थाने षकारः भवति हरीषु। सूत्र ऐ मेन्शन्ड् प्रीवियस्लि, आदेशप्रत्यययोः इति सूत्रम्। प्रत्यययोः तेन सूत्रेण सकारस्य स्थाने षकारः, अतः हरीषु इति रूपम्। अस्तु, अत्र कश्चन प्रश्नः अस्ति, घेरङ् इति सूत्रस्य कृपया विवरणं ददातु। अत्र पदम् अस्ति घेः, पुनः ङिति, पदद्वयं दृश्यते, घेः ङिति। घेः इति अगेन टेक्निकल् टर्म्, ऐ डिडन्ट् एक्स्प्लेन् दिस् प्रीवियस्लि, संज्ञा संज्ञापदम, घी इति काचित् संज्ञा, घी इस् अ संज्ञा पाणिनिना कृता अस्ति घी। तत्र इकारान्त घिसंज्ञायाः कः अर्थः इति भवन्तः अनन्तरं पश्यन्तु, आपाततः वदामि। कुत्र द्रष्टव्यं, शेषोघ्यसखि इति सूत्रम्। शेषोघ्यसखि, शेषो घि असखि, शेषोघ्यसखि, अस्तु, सखि महाप्राण, पश्यन्तु। अनेन सूत्रेण घिसंज्ञा घिसंज्ञायाः अर्थः उच्यते, शेषोघ्यसखि इत्यनेन। आपाततः वक्तव्यं चेत् प्रायः अत्र इकारान्तशब्दाः, इकारान्ताः उकारान्ताः घिसंज्ञां प्राप्नुवन्ति, इकारान्ताः उकारान्ताश्च घि इति संज्ञां प्राप्नुवन्ति, अकारान्तस्य नास्ति, इकारान्तस्य नास्ति, इकारान्तौकारान्तानां घी इति संज्ञा अस्ति। సో ఘిస ఘేహే ఇది అస్తి ఘిసంజ్ఞకస్య విచ్ హ్యాస్ ఘిసంజ్ఞ ఘేహే ఘిసంజ్ఞకస్య కిం భవతి గుణః భవతి నితి నిత్ ప్రత్యయే పరే సి దీస్ ఆర్ నిత్ ప్రత్యయాస్ ఏ యాక్చువల్లీ ద ఒరిజినల్లీ ఇట్ వాస్ ఏ అండ్ అస్ ఒరిజినల్ ఇట్ వాస్ లైక్ దిస్ నసి అండ్ దిస్ వన్ ద షష్ఠి ఏకవచన ఒరిజినల్ ఇట్ వాస్ నస్ ఓకే ఆల్ దీస్ ఆర్ నిత్ ప్రత్యయాస్ మీన్స్ నకారః ఇత్ యస్య సహ నిత్ ఏతేషు ప్రత్యయేషు న దిస్ లెటర్ నకారస్య ఇత్ సంజ్ఞా అస్తి దేర్ఫోర్ ఇట్ డిసపియర్ దేర్ఫోర్ దీస్ ఆర్ నిత్ ప్రత్యయాస్ నితి పరే దిస్ ఆల్సో నిత్ బట్ ఇట్ వాస్ రిప్లేస్డ్ విత్ ఔ దేర్ఫోర్ ద రూల్ ఇస్ నాట్ అప్లికేబుల్ హియర్ ఏవంచ నితి పరే నిత్ ప్రత్యయే పరే ఘేహే ఘి సంజ్ఞకస్య గుణః భవతి ఇది సూత్రస్య అర్థ గుణః అనువర్తతే అతః అత్ర ఏ ప్రత్యయే పరే అస్ ప్రత్యయే పరే పునః షష్ఠి అస్ ప్రత్యయే పరే చ ఘిసంజ్ఞకస్య ఘిసంజ్ఞా ఇకారాంతస్య ఉకారాంతస్య చ భవతి అత్ర అస్మిన్ ఉదాహరణే అస్మాభిః హరిశబ్దః స్వీకృతః తస్య గుణః ప్రవర్తతే ఇది సూత్రస్య అర్థః కెన్ యూ కైండ్లీ రైట్ సైట్స్ ఫర్ చేంజెస్ లైక్ ఆ టు నా దెన్ no actually I explained this in the previous class so please see the notes of previous class I explained how the a became na and how this ngi became au and the sutras are also given so therefore I don't want to give again the same sutras I want to explain same vai ki when you can use in okay actually see ghi he explained ghi after explaining nadi there are two technical terms nadi is again is not a river in sanskrita vyakarana nadi is a technical term samjna padam asti సో నదీ సంజ్ఞాయః కః అర్థః ఇది తేన ఉక్తం దెన్ ఆఫ్టర్ ఎక్స్ప్లెయినింగ్ నదీ సంజ్ఞా యు కెన్ సీ ద వర్డ్ శేషః శేషః అవశిష్టం ద రిమైనింగ్ శేష అవశిష్టం కి సంజ్ఞాం ప్రాప్నోతి ఇత్యర్థః సో టు అండర్స్టాండ్ కి సంజ్ఞా వి షుడ్ ఆల్సో నో వాట్ ఈస్ నదీ దెర్ ఆర్ ఫోర్ ఫైవ్ రూల్స్ explaining what is nadi therefore I didn't explain here so remaining is called ghi therefore this little bit technical what I mentioned generally ikaraanta ukaraantas get ghi samjna is just a general explanation but it's a little more technical so to understand what is ghi exactly we have to understand what is nadi first then the remaining gets the remaining words they get ghi samjna okay So, those are interested, please once go through this Nadi, Nadi Samjha and Ghi Samjha. If you didn't understand, then I can explain if you later. But the sutra for Nadi Samjha is, just Yustriyakshu Nadi, I will write the sutra Sankhya. So that, యూస్త్ర్యాఖ్యో నది 143 143 దిస్ ఇస్ యూస్త్ర్యాఖ్యో నది దట్ సూత్ర ఎక్స్ప్లెయిన్స్ వాట్ ఈస్ నది నది ఇది సంజ్ఞా అస్తి ఆఫ్టర్ దాట్ 143 ఇస్ యూస్త్ర్యాఖ్యో నది దెన్ దర్ ఇస్ 3, 4, 5, 6 okay so totally there are four sutras explaining what is nadi 143, 144, 145, and 146. Four sutras are there. They explain what is Nadi. So 147 is this one. Sheshogya Sakhi. 147. So to understand this Sheshogya Sakhi, we have to understand 3, 4, 5, 6. 143, 145, 1. From 143, 4, 145, 6. अतः एतानि सूत्राणि एकवारं पठन्तु ततः परं यदि यत्र सन्देहः अस्ति चिन्तयामः या शिवराम जी उत्तम सो 143 to 147 वी हैव टू स्टडी फॉर दिस ओके अस्तु सो ऑल दिस एक्सप्लेनेशन बिकॉज देयर इज अ सूत्र घेर नीति सो ही यूज पाणिनि यूज द वर्ड घी. But you can find the same word in this sutra also. Accha ghehe. Again, the same word he used. Ghi. And ikaranta shabdaha punaha ukaranta shabdaha. Atra kaschana visheshaha asti. I think we know the word pati. Pati iti shabdam jani maha. This is also ikaranta shabda. And one more word, it is Bhupati. Since there is a discussion about Gisanya, I am just explaining this. Pati iti ikaranta shabdah asti, Bhupati iti ikaranta shabdah asti. So kaha bhedaha anayoho, pati hi atra samasaha nasti, pati shabde samasaha nasti. Bhupati ityatra samasaha asti iti bhedaha. Yes, therefore there is some uniqueness in this word, pati and bhupati. So bhupati is ikaranta ubhayamapi. So both the word end with ikara only, pati, bhupati. But in bhupati samasa asti, pati ityatra samasaha nasti. Atra कश्चन विशेषः उक्तः यदि समासः अस्ति लाइक दिस भूपति यदि समासः अस्ति तदा हरिशब्दवद् रूपम् यदि समासः अस्ति तदा हरिशब्दवद् रूपम् सो हरिः हरि हरयः हरिणा हरेः विदित् हरिणा एंड हरये हरेः हरेः हरौ भूपति शब्दे अपि भूपतिना भूपतये भूपतेः भूपतेः भूपतौ समानं रूपं किन्तु बट इफ इट इज जस्ट पति शब्द देन देयर आर सम चेंजेस सो दिस ना इज नॉट एप्लीकेबल इंस्टेड ऑफ ना द ओरिजिनल आ दिस प्रत्यय टू बी एडेड सो इट बिकम्स पत्या. And here it is patye. Here it is patyuhu. There are some changes. This change is because of ghisamnya only. This why bhupati shabda has ghisamnya, pati shabda doesn't have ghisamnya. Bhupati shabda se ghisamnya asti. Hari shabda has ghisamnya. See, hari shabda has ghisamnya. And this samasa, samasanta pati shabda. It has kisamnya, Hari and Bhupati. Any, not only Bhupati, any word ending with Pati, there should be samasa. Both Hari punaha Bhupati atra kisamnya asti. But this Pati shabda, without samasa, kisamnya nasti. Samasaha nasti chet Pati shabdasya kisamnya nasti. Ataha Pati shabdasya rupani, yadyapi dodi sikaranta. पति शब्द इकारांतः चेदसि हरि शब्दवत् रूपं नास्ति किन्तु यदि समासः वर्तते तर्हि हरि शब्दवत् एव रूपम् अतः कथं हरि पति शब्दस्य रूपं भवति इति भवन्तः द्रष्टुं शक्नुवन्ति पुस्तकेषु अपि बहु विशेषः कोऽपि नास्ति केचन प्रत्ययाः अत्र लिखिताः पति शब्दे न सम्बध्यन्ते यस् श्रीपति पशुपति Swaminathan ji gave some examples, correct? So Satvars, Sripati, Pashupati, ending with Pati. Tadrisha Shabdaha, Hari Shabdavat Eva Rupani Praknuvanti. Kimartam? Hari Shabdasya, Bhupati Shabdasya, Ghisamnya Asti. It has Ghisamnya. Kintu, Pati Shabdasya, Ghisamnya Asti, without Samasa. The Sutra, I will write this Sutra so that you can search that later. Patihi, Pati Samasa Eva. Pati Samasa Eva, Samasa Eva. Oh, this sa, not sa, samasa eva. It is sutra. Samase eva gisamnya ityartha. Okay. Patis samasa eva. It is sutra. Samase eva patishabdasya gisamnya bhavati ityartha. Ataha patishabdasya prakriya rupam bhidyate bhupatishabdat. Okay. अत्र प्रायः प्रश्नाः सन्ति इति भाति पर्वतः सन्ति
नमस्ते पति नमस्ते हरि पति बोथ दि प्लेसेस देयर इज नो समासा देन व्हाई आई नो आई एम फाइंडिंग इट डिफिकल्ट व्हाई हरि इज टेकन एज द स्टैंडर्ड ऑन दैट बेसिस द समास पदम इज लाइक हरि But Pati is also without samasam. Why have this differentiation? Hari, because it refers to Vishnu, is such things.
Nothing. No. Tarsham kyapi nasti. Just depends on ghisamnya. The words which have ghisamnya, their prakriya is different from other words. So Hari Shabda has Gisamnya and Bhupati Shabda has Gisamnya. Gisamnya Esham Asti, Tesham Prakriya Bhinna. Esham Gisamnya Nasti, Tesham Prakriya Bhinna.
But among the Padas, how do we know which are with Gisamnya, which are not without everything ending at E, Ikara?
Generally, all the Ikaranta words, they have Gisamnya. This is generally all Ikaranta, Ukaranta words, generally they have Gisamnya. So there are some exceptions like this. Pati.
Oh, Pati is only Vikalpa.
Correct. This is Vikalpa. Exception. Apavada Hasti. Otherwise, but, you won't find such words. Generally,
but how do I know, given a particular new word is given, how do I know that belongs to Apavada or not belong to Apavada?
Okay. For that, we have to study the rules of Ghisamnya. So there are not many rules. See, only actually... only these two rules are there. Sesho Ghesaki, Patisthamasa Eva in Ashtachayi. So only one exception to this Ghisamnya rule. See, 147, as I mentioned, 147 is Sesho Ghesaki, which explains what is Ghi. And 148 is Patisthamasa Eva, this rule. So this is only one exception is there.
So but if I
regarding this Ghisamnya only one exception, but there are some other Ikaranta words like Sakhi Shabda. There is also Ikaranta, but it has a little bit different form. That's not because of Ghisamnya.
Well, due to some other
correct. Some other rules are applicable, therefore it has some other forms. So related to Ghisamnya, only these two rules. One explains what is Ghi, and Patisthamasa is an exception to Ghi.
But
if you want to understand all Ikaranta words, then you have to study Siddhanta Kaumudi. So there they have given all the exceptions. All type of exceptions are given in Siddhanta
Kaumudi. So strictly after studying Siddhanta Kaumudi, only one should come to Ashtadhyayi. Is it like that?
No, because since Siddhanta Kaumudi is in Prakriya Krama, it will be very easy to understand the Prakriya.
Okay.
So because we have to keep the both Siddhanta Kaumudi and Ashtadhyayi. So we should
study. I have to go between the two like that.
Correct. That is the correct method. Yes. Since it is written only for Pratyaya, it will be, we get clarity while writing Siddhanta Kaumudi.
Dhanyavada.
Okay. So I think Prashna Santyatra is a sa. Okay. Many. It is because of the way the language developed. Correct. See, Vyakarana explains. Vyakaranam kim karoti? Vidyamana shabdanam vivaranam karoti. Vyakaranena shabdaha nakriyante. Shabdaha loke santi. Tesham vyakshanam vyakaranam karoti. Atah, tatra samana niyamam karoti. First it creates general rule. Then it mentions all the exceptions. It is the way. अतः उत्सर्गः अपवादः तेन क्रमेण व्याख्यानं करोति अतः विद्यमान शब्दानां विवरणमेव इदं व्याकरणेन किमपि नूतनं न क्रियते द रूल्स वर इन्वेंटेड टू फिट द लैंग्वेज यस स्वामिनाथन उत्तमं उत्सर्गः एंड अपवादः आर द मेथड्स या सो उत्सर्ग इज जनरल रूल अपवाद इज एक्सेप्शन सो दैट इज हाउ द होल अष्टाध्याय इज रिटन There is that method he adopted. So first he mentions the general rules, then he writes the exceptions. Okay. Yeah. So here also, as I mentioned in this Sheshogya Sakhi, he first gave the general rule, that is Sheshogya Sakhi. Then he gave the exception, that is Patissamasa Eva. This is how the rules are written in Ashtadhyayi. सो अतः भीतिः मास्तु ओ तत्र बहवः अपवादाः सन्ति इति चिन्ता मास्तु सो सामान्यतः एवमेव प्रक्रिया भवति सामान्यतः इकारान्त उकारान्तशब्दश्चेत् तत्र हरिशब्दवत् एव रूपाणि भवन्ति किन्तु केचन अपवादाः भवन्त्येव यः कोऽपि यत्किञ्चित् सूत्रं यः कोऽपि नियमः भवतु अपवादाः सन्त्येव एवं प्रतिशब्दस्य विषये अस्ति तथा अन्येपि केचन शब्दाः सन्ति प्रायः सर्वेषां शब्दानां विवरणं कर्तुम् अहम् अत्र न शक्नोमि यतः तदर्थम् अधिकः समयः अपेक्षितः भवन्तः केवलं मार्गं निर्देष्टुं शक्नोमि यदि पुनः सिद्धान्तकौमुदी इत्यादीनाम् अष्टाध्यायी मिलित्वा अध्ययनं कुर्मः सिद्धान्तकौमुद्या सह अष्टाध्यायी अध्ययनं कुर्मः तदा प्रायः सर्वेषां पदानामपि अवगमनं प्राप्तुं शक्नुमः ज्ञानं प्राप्तुं शक्नुमः अदर्वैस् यु कन् रीड् दिस् सिद्धान्तकौमुदी Or you can see in the Shabda Rupa books where you get all these exceptions. Apavada sarvasu bhashasu santi eva. Evam, satyam, kalyanidhi. So, sarvatrapi apavada bhavanti eva. Ataha prathamam utsargam jani maha. Tadas param apavadasya chintam kurmaha. Yata samanyataha asmakam kinchit jnatam bhavati. Utsargam jani maha. तर्हि तत्र सामान्यज्ञानं प्राप्यते ततः परम् अपवादाः के इति जानीमः अतः यदि सर्वं ज्ञातव्यं चेत् इफ् यु वाण्ट् टु नो एव्रिथिङ्ग् कम्प्लीट्लि देन् वि हेव् टु स्टडि आल् दीस् 4000 रूल्स् देन् ओन्ली वि नो वि विल् गेट् कम्प्लीट् नालेज् सो इनिशियलि आरम्भे सर्वं न शक्यते अतः आरम्भे किञ्चित् उत्सर्गान् जानीमः ततः परम् अपवादानाम् अपि ज्ञानं प्राप्नुमः ओके अस्तु एवं तत्र इकारान्तशब्दानां विषये उक्तं तद्वदेव उकारान्तशब्दानामपि प्रक्रिया कोऽपि विशेषः नास्ति उदाहरणार्थं गुरुशब्दः सुकारान्तशब्दः प्रक्रिया समाना हरिः यथा हरिः इति कृतं तथा गुरुः हरि इन् द्विवचन इट् बिकेम् हरी पूर्वसवर्णदीर्घ गुरुशब्दस्यापि पूर्वसवर्णदीर्घ पूर्वः वर्णः कः हियर् देर् वास् इकार इन् हरिशब्द हियर् इट् इस् उकार अतः दीर्घ आफ् उकार उकारस्य दीर्घः कः ऊकारः ऊकारः द्वयोः स्थानेपि भवति सो गुरु plus au, it becomes guru. The u replaces hrastavakara and aukara. Guru. Guruhu guru. Like harayaha, here it is guravaha. Martam dukaranda shabdataha. Hari became hare when we applied guna. Guru becomes guru. Ataha guravaha. And guru am gurum. Guru gurun. Guru na guru na. Guru bhyam. Guru bhihi. Guru e. Gunarul and Echoyavayavaha, Gurave, Guru Bhyam, Guru Bhyaha. Like Harehe, here it becomes Guroho. First Guna, then Purarupa. Guroho, Guru Bhyam, Guru Bhyaha, Guroho, Gurvoho, like Harijoho. Here also Yan Santi, Gurvoho, Guru Nam, Gurau, Gurvoho, Gurushu. Iti Prakriya. अतः प्रक्रियायां कोऽपि विशेषः नास्ति हरिशब्दस्य गुरुशब्दस्य च प्रक्रिया समा नास्ति सूत्राणि तान्येव तान्येव सूत्राणि प्रवर्तन्ते किन्तु इकारान्तः इति कारणात् यदा गुणः क्रियते इकारस्य स्थाने एकारः भवति निकारान्त बट् गुरुशब्द इस् उकारान्त अतः उकारस्य स्थाने यदा गुणः क्रियते तदा इट् गेट्स् ओ अयमेव भेदः अत्र अन्यः कोऽपि भेदः अस्ति अस्तु अग्रिमवर्गे अपि गुरुशब्दं पश्यामः अस्तु पुनः यदि गुरुशब्दस्य विषये यदि लिखित्वा दर्शनीयं तर्हि अग्रिमपाठे वदिष्यामि यदि एतावत् अवगतम् इति चिन्तयन्ति तर्हि पुनः न वदिष्यामि ऋकारान्तशब्दानां प्रक्रियां पश्यामः अग्रिमपाठे अस्तु अस्तु तर्हि यदि प्रश्नः नास्ति अत्र समापयामः ओके स्वामिना ओके पर्वतनाथ सञ्जी ओके प्रश्नः अस्ति हा पृच्छन्तु
नमस्ते
नमस्ते
इन् कण्टिन्युएशन् आफ् दि अर्लियर् क्वश्चन् सो दि प्रापर् वे टु अण्डर्स्टाण्ड् व्याकरण इस् गो बेक् अण्ड् फोर्त् बिट्वीन् अष्टाध्यायी अण्ड् सिद्धान्तकौमुदी देन् वाक्यका वररुचि वररुचि देन् ओन्ली महाभाष्य इस् इट् दि वे they one progresses to understand the entire vyakarana
no see in siddhanta komadi as the name mentions say siddhanta so whatever discussed in vartikas and bhashyas is given in siddhanta komadi therefore it's called siddhanta komadi siddhanta nam nirnayah bhavati so sarve nirnayah atra likita santi so you will find vartika bhashya sentences also in siddhanta komadi therefore then
after Ashtadhyayi, then only Vartika, then only Mahabhashya.
First, correct. So first, that is as a order. First sutras are written, then Vartika, then Bhashya. Then the grammarians, like Bhatta, Dikshita, etc., they discussed whatever discussed in Sutra, Bhashya and Vartikas. So,
but in general, first you get to know shlokas, some kathas like that in Sanskrit. Then only, of course, basic vyakaranam is there. Then only Ashtadhyayi, Siddhanta Komadi like that. That is how everybody progresses.
That's right, because there are 4,000 rules. Again, there are many vartikas. So it is very difficult to study all these rules initially. Arambhe sarvam patitum kastam. Ataha arambhe iti samanya niyaman pathamaha. Tadah param sarvam pathamaha. Iti kramaha.
Bhiti hi jayate. Ihatate drishtva.
भीतेः अपेक्षा नास्ति, बहु सरलमस्ति. यदा वयं तत्र पर्वतारोहणं कर्तुमिच्छामः, आरम्भे यदि पर्वतं पश्यामः ओ बहु उन्नतः अस्ति इति भीतिः भवति, यदा उपरि गच्छामः तदा आनन्दम् अनुभवामः. अतः चिन्ता नापेक्षिता. अस्तु, तर्हि पुनर्मिलामः. वाक्यकारं वररुचिं, भाष्यकारं पतञ्जलिं, पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. ओके, श्रीविद्याजी आस्क्ड क्वेश्चन टू बाय द सिद्धांत कौमुदी, हु इज द पब्लिशर. सो इफ यू वांट टू रीड अ संस्कृत कॉमेंट्री, देन इट इज मोतीलाल आर चौकंबा द पब्लिशर विथ कॉमेंट संस्कृत व्याख्यान संस्कृत कॉमेंट्रीज. If you want to have English, then I think the Basu, S.C. Basu something, I don't know, Shirish Chandra Basu, he wrote English commentary on Siddhanta Kumadi. This is the best book if you want English translation. Okay. अस्तु तर्हि.